अर्जुन उवाच एवं सततयुक्ता ये भक्तस्त्वं पर्युपासते ये चप्यक्षरमप्यक्तं तेषां के योगवित्तमः श्रीभगवानुवाच मय्या विश्यमनो ये मां नित्ययुक्त उपासते श्रद्धया परयोपेतस्ते मे युक्ततमो मतः ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यं च कूटस्थम् अचलं ध्रुवम् संयम्येन्द्रियग्रमं सर्वत्र समबुद्धया ते प्राप्नुवन्ति मामेव सर्वभूतहिते रतः क्लेशोधिक्कतरस्तेषाम् अव्यक्तसक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवप्यते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुधर्ता मृत्युसंसारसागरात् भवामि न चिरत्पर्थ मय्यवेशितचेतसाम् मय्येव मन् अदत्स्व मयि भुदिङ्निवेशय निवासिष्यासि मय्येव अत ऊर्ध्वं न संशया अतच्चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय अभ्यासेऽप्यासमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवप्स्यसि अथैधदप्यसक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं तत कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानविशिष्यते ध्यानत्कर्मफलत्यागस् त्यागच्छन्तिरनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रकरुण एव च निर्ममो निरहङ्कारः समदुःखा सुखक्षमी सन्तुष्टा सततं योगी यतात्मा धृतनिश्चया मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः अनपेक्षा सुचिरदक्ष उदासीनो गतव्यथा सर्वारम्भा परित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यत्येनाद्विष्टि न शोचति न कङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः समशत्रौ च मित्रे च तथा मनापमानयो शीतोष्णसुखदुःखेषु समसङ्गविवर्जतः तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरं मत्तिर्भक्तिमान् मे प्रियो नरः ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्धधानमत्परमा भक्तस्तेति वमे प्रियः